इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः गणेश हेगडे। अथ वार्ताः। केन्द्रीय वित्तमन्त्री निर्मला सीतारामन वर्या ह्यः कोलकाता नगरस्य राष्ट्रिय पुस्तकालये अग्रिम वंशश्रेणिक जीएसटी परिष्कार समित्या आयोजिते कार्यक्रमे नूतन जीएसटी परिष्कारस्य लक्ष्याणि रेखांकितवती। सावदत् यत् वस्तुसेवाकरस्य परिष्कारस्य उद्देश्यं देशस्य कर राजस्व व्यवस्थायाः सरलीकरणं आधुनिकीकरणं च वर्तते।
The new generation GST reforms is a thorough review and a proposal which resulted in a proposal after the review. So the thorough review is what? In the last 8 years, keeping the framework intact, which was a framework formed at the stage of introducing GST, and we kept improving it in the last 8 years.
उपभोक्तृकार्याणां खाद्यं तथा सार्वजनिक वितरण मन्त्रालयेन संशोधित जीएसटी मूल्य विषये संशोधित परामर्शः विज्ञापितः, यद्धि सोमवासरात् प्रभावि भविष्यति। परामर्शानुसारं निर्मातारः, आयातकादयः च स्वेच्छानुसारं सितंबर मासस्य 22 दिनांकात् पूर्वं निर्मितानां अविक्रीत वस्तूनां उपरि अतिरिक्त संशोधित मूल्य स्टिकर चिह्नं स्थापयितुं शक्नुवन्ति, किन्तु तदुपरि मुद्रितं मूल एमआरपी मूल्यं अस्पष्टं न भवेत्। मन्त्रालयेन स्पष्टीकृतं यत् नियमेषु एतादृशं पुनः संशोधित मूल्य स्टिकर चिह्नं स्थापनं तावदनिवार्यं नास्ति, तथा च ये संस्थाः संशोधित मूल्यानि घोषयितुमिच्छन्ति तेषां कृते एतत् शुद्धरूपेण वैकल्पिकं वर्तते। भारतं संयुक्तराष्ट्रसंघस्य खाद्य कृषि संघटनं च विश्वस्तरीय नीलनौकास्थानकानां निर्माणार्थं हस्तं मिलितवन्तौ। मत्स्यपालनं, पशुपालनं, दुग्धपालनं इत्येतेषां मन्त्रालयस्य अन्तर्गतं मत्स्यविभागेन भारते नीलनौकास्थानकस्य आधारभूतसंरचनायाः सुदृढीकरणाय खाद्य कृषि संघटनेन सह प्रौद्योगिकी सहकार कार्यक्रमसन्धौ हस्ताक्षरं कृतमस्ति। नागरिक उड्डयन महानिदेशालयेन मानसून विरामस्य अनन्तरं ऐषमः चतुर्धाम यात्रार्थं हेलीकॉप्टर संचालनस्य पुनरारम्भस्य अनुमोदनं कृतम्। नागरिक विमान मन्त्रालयेन विज्ञप्तौ उक्तं यत् चतुर्धाम संचालनस्य सुरक्षावर्धनार्थं कठोर परीक्षणानन्तरं रणनीतिक परिकल्पनाः कार्यान्विताः सन्ति। संघलोकसेवा आयोगेन विभिन्न परीक्षाणां समये शीघ्रं सुरक्षितञ्च अभ्यर्थी सत्यापनार्थं कृतक बुद्धिमत्ताक मुख प्रमाणीकृत प्रौद्योगिक्याः परीक्षणार्थं पैलट इति परीक्षा कार्यक्रमः सफलतया सम्पादितः। अस्मिन् मासे 14 दिनांके आयोजिते एनडीए एंड एनए 2 एग्जामिनेशन तथा सीडीएस 2 एग्जामिनेशन इत्यस्य समये एषः पैलट कार्यक्रमः प्रचालितः। गुरुग्रामस्य चयनित केन्द्रेषु एषः प्रयोगः कृतः, यत्र अभ्यर्थीनां मुखस्य चित्राणि तेषां पञ्जीकरण प्रपत्रेषु प्रदत्तैः छायाचित्रैः सह डिजिटल रूपेण मेलनं कृतम्। नूतन प्रणाल्याः सत्यापन समयः प्रति अभ्यर्थिनः परिमित्या केवलं 8-10 सेकेण्ड् यावत् न्यूनीकृतः। एषः उपक्रमः राष्ट्रिय ई शासन विभागस्य सहकारेण कृतः आसीत्। वित्तमन्त्रालयेन केन्द्र सर्वकार कर्मचारिणां पूर्वनिवृत्तानां च कृते राष्ट्रिय पेन्शन व्यवस्थायाः एकीकृत पेन्शन योजनायां परिवर्तनस्य अन्तिमदिवसः सितम्बर मासस्य 30 दिनांकः इति घोषणा कृता अस्ति। एकस्मिन् वक्तव्ये मन्त्रालयेन उक्तं यत् यूपीएस अन्तर्गतं सपात्र कर्मचारिणः एकवारम् एव एनपीएस इत्यत्र परिवर्तनं कर्तुं शक्नुवन्ति। केन्द्रीय शिक्षामन्त्री धर्मेन्द्र प्रधानः विद्यालय शिक्षायां राष्ट्रिय शिक्षानीतिः 2020 इत्यत्र कार्यान्वयन विषये समीक्षा सभां कृतवान्। सोशल मीडिया सन्देशे श्रीप्रधानेन उक्तं यत् मन्त्रालयः शिक्षाव्यवस्थायाः आधुनिकीकरणाय शिक्षणम् अधिकम् आनन्ददायकं छात्रकेन्द्रितं च कर्तुं प्रतिबद्धः अस्ति। बैडमिंटन क्रीडायां ह्यः शेंझेन नगरे चाइना मास्टर्स क्रीडायाः महिला एकल क्वार्टर फाइनल क्रीडायाः मध्ये द्विवारं ओलंपिक विजेता भारतस्य पीवी सिंधुः पराक्रमं प्रदर्श्य पराजयं कृतवती। इति वार्ताः।